broadcast is now starting. All attendees are in listen-only mode.
Namaskar. अद्य चम्पूरामायणस्य बालकाण्डे चतुर्दशः पाठः मार्च् मासस्य पञ्चमः दिनाङ्कः लक्ष्मीं तनोतु नितरामितरानपेक्षमं हृद्वयं निगमशाखिशिखाप्रवालम् हैरम्बवम्बुरुहडम्बरचौर्यनिघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरन्नः रावणस्य पराक्रमस्य वर्णनम् दृष्टम् देवाः ब्रह्माणं पुरस्कृत्य क्षीरसागरं गत्वा तत्र महाविष्णुं दृष्ट्वा रावणेन कथं सर्वे लोकाः पीडिताः इति वर्णयन्ति. तत्रादौ सूर्यस्य दशा वर्णिता, सोऽयं कदाचित् क्रीडाधराधरमारुह्य इत्यादिना. रावणः चरणाभ्यां पर्वते सञ्चरति चेत् सूर्यः भीत्या गत्वा आत्मानं गोपायितुं प्रयतते. एवं चन्द्रः एष मृगाङ्कोऽपि, चन्द्रः यदा रावणः मृगयायाः प्रत्यागत्य स्नातुं गच्छति तदा तत्र चन्द्रशिला घटेभ्यः स्वस्य करस्पर्शेन जलम् उत्पादयन् तस्य प्रसादस्य पात्रं भवितुं प्रयतते. तेन पुलस्य नन्दनेन संक्रन्दननन्दनात् स्वमन्दिरोद्यानमानीतस्य. सः रावणः इन्द्रस्य नन्दनवनात् मन्दारादीन् वृक्षान् आनीय स्वस्य उद्याने स्थापयित्वा बन्दीकृताः सुरसुन्दरीः तेषां पालने नियोजितवान्. तेभ्यः वृक्षेभ्यः पुष्पाणि पतेयुः इति भिया पवमानाः परिस्पन्दितुमपि प्रभवो न भवन्ति. एतेऽपि पावकाः रूढिशङ्कावहां हुतवहाख्यां वहन्तः सद्गृहे गार्हपत्यपुरोगाः पौरोगवधुरं दधते. अग्नयः अग्नेः हुतवहः इति नामधेयं विद्यते. हुतं नाम हविः, हविः वहति इति हुतवहः. यज्ञादिषु दत्तस्य हविषः प्रापकत्वम् अग्नेः भवति. भिन्नाभ्यः देवताभ्यः या यत् हविः दीयते तस्य प्रापकः अग्निः, अत एव हुतवहः इति नाम. किन्तु रावणः सर्वान् यज्ञान् नाशितवान्. तस्य शासने कुत्रापि यज्ञादिकं न प्रचलति, अतः हविर्दानमपि नास्ति. तथा सति हुतवः शब्दः स्वस्य यौगिकार्थं परित्यज्य केवलं रूढ्या हुतवहः इति नाम प्रयुज्यते. वस्तुतस्तु तेषाम् अग्नीनां प्रयोगः पाकगृहे एव भवति. पौरोगवधुरं दधते, पौरोगवः नाम पाकशालाध्यक्षः. तत्रैव अग्नीनां कार्यं भवति, न तु यज्ञयागादिषु. स एष मानुषादवमाननमागमिष्यतीत्यमन्मानः, सवितरैरवध्यत्वं चतुराननवराल्लब्ध्वा समुद्धतः. सः रावणः चिन्तयति, कश्चिन्मानुषः कदापि मां पराजेतुं न शक्नोति, अतः तद्भिन्नैः अवध्यत्वरूपं वरं सः ब्रह्मणः प्राप्य तेनैव अत्यन्तं दर्पोद्रिक्तः. तस्य पराक्रममपि वर्णयति. संप्रहार समाक्रांत दिगंत दंतावल दंतकुंत व्रणकीण स्थपुटित वक्षस्थलः. युद्धे दिग्गजैः सह युद्धं कृत्वा दिग्गजानां दंतैः यः व्रणः तस्य वक्षस्थले जातः, तेषां व्रणानां किणैः, किणः शुष्कः भागः, सो अस्कार इज कॉल्ड अकिण, तैः तस्य वक्षस्थलं स्थपुटितमासीत् इति. सः त्रिलोकीम् अभिभवन् भवदीयान् इत्यस्मान् न जातु कदाचिदपि जानाति इति. अतः वयं भवदीयाः भवन्तमाश्रिताः इति अज्ञात्वा एवं बहुधा अस्मान् पीडयति इति सुमनसां संसत् पुंसे परस्मै विज्ञापयामास. अथ भगवान् आकर्ण्य गीर्वाणगणवाणीम्, इति अग्रिमः भागः सरलं लघुवाक्यम् अथ भगवान् आकर्ण्य गीर्वाणगणवाणीम् अथ तदनन्तरम् अर्थात् देवानां विज्ञापनानन्तरं भगवान् नारायणः महाविष्णुः आकर्ण्य इत्यस्य श्रुत्वा इत्यर्थः आकर्णयति सावधानं शृणोति इत्यर्थः सुश्रुत्वा सो लिसनिंग टू द प्ली ऑफ द देवास् गीर्वाण गणवाणीं गीर्वाणाः देवाः गीर्वाणानां गणः समूहः सो देवसमूहस्य सुरसंघस्य वचनं श्रुत्वा अर्धं वाक्यम् अग्रे श्लोके समाप्यते सो इट इज ओनली हाफ अ सेंटेंस सो द लॉर्ड विष्णु हैविंग हर्ड द प्ली ऑफ द असेंबली ऑफ देवास भगवान नारायणः देवानां विज्ञापनं श्रुत्वा स्वयं वक्तुं आरभते इति अग्रे श्लोकः वेरी सिंपल देयर इज नथिंग ऑफ दिस सो अग्रिम श्लोकः इन्द्रनीलाचलोदञ्चन्द्रिकाधवलस्मितः वाचमूचे सुधाधारां मधुरां मधुसूदनः सो अनुवक्तुम् इच्छन्ति Please raise your hands to repeat and split the words. Nobody? Why? Sharada Bhagini. Indra Neela Chalodanchat.
Indra Neela Chalodanchat. Indra Neela Chalodanchat.
Chandrika Dhavala Smitaha.
Chandrika Dhavala Smitaha. Chandrika Dhavala Smitaha.
Vachamuche Sudhadharam.
वाचमूचे सुधाधाराम् वाचमूचे सुधाधाराम्
मधुराम् मधुसूदनः
मधुराम् मधुसूदनः मधुराम् मधुसूदनः
इन्द्रनीलाचलोदञ्चन्द्रिकाधवलस्मितः
इन्द्रनीलाचलोदञ्चन्द्रिकाधवलस्मितः इन्द्रनीलाचलोदञ्चन्द्रिकाधवलस्मितः
वाचमूचे सुधाधाराम् मधुराम् मधुसूदनः
वाचमूचे सुधाधाराम् मधुराम् मधुसूदनः वाचमूचे सुधाधाराम् मधुराम् मधुसूदनः
पदच्छेदः
इन्द्रनीलाचल उदञ्च चन्द्रिका धवलस्मितः वाचम् ऊचे सुधाधाराम् मधुराम मधुसूदनः
सम्यक् सो इन्द्रनील अचल इन्द्रनीलाचल उदञ्चत् चन्द्रिका धवल स्मितः वाचम् ऊचे सुधाधाराम् मधुराम मधुसूदनः ऊचे इति क्रियापदम् वाचम् ऊचे उवाच इत्यस्यैव आत्मनेपद प्रयोगः ऊचे अब्रवीत् इत्यर्थः कः ऊचे मधुसूदनः मधोः सूदनः मधुसूदनः मधु नामकस्य दैत्यस्य नाशकः विष्णुः इत्यर्थः सो मधुसूदनः ऊचे कीदृशः मधुसूदनः इन्द्रनीलाचलोदञ्चन्द्रिकाधवलस्मितः इन्द्रनीलाचलः इन्द्रनीलः इति अचलः अचलः नाम पर्वतः शैलः इन्द्रनीलमणेः निर्मितः अचलः इन्द्रनीलः इति मणिः मरकतमणिः सो मरकत मणिः इट्स् अ वेरि डार्क् ब्लू और् डार्क् प्रेशियस् stone is called Marakata. Bhagavatah Vishnoho prasiddham varnanam bhavati. Marakata mani nibhadehaha iti. Ataha tasya dehasya varnaha indranila varnaha. So indranila chalaha nama marakata manina nirmitaha shailaha tatra udanchati nama vilasanti ya chandrika jyotsna chandrasya prakashaha chandrika the moonlight. So resembling the moonlight which is playing upon an indranila mountain. Tadvat dhavalam. Dhavalam nama shvetavarnaha athava shubhram. So that which is white and shining like the moonlight on a mountain of Indranila. So tadvat dhavalam smitam nama hasaha yasya tadrishaha madhusudanaha Indranila chalodancha chandrika dhavala smitaha kahartaha vishnohu mandahasaha Indranila chale vilasantyaha chandrikayaha dhavalimam dhavalimaya sadrishaha asti tasya hasaha. So his smile resembles the sheen of the moonlight which is playing upon an Indranila mountain. Tatra Vishnoho dehasya Indranila parvatena upama evam tasya hasasya chandrikaya upama. So his Vishnu is compared to an Indranila mountain. So comparison is because of the color. And again, so like the moonlight which is white and shiny, so tatha tasya smitam nama hasaha api tadrishaha iti upamalankaraha. So tatra prashna asti indrakila parvataha bhinnaha va iti. So indrakila iti kasyachit parvatasya nama. So it's a name of a mountain. So the Indranila chala is not a real mountain, as in there is no mountain which is made up fully of Indranila. It is called a Kavisamaya. So if there were a mountain which was made of Indranila, so that would be the resemblance. Ityartha. So sampurnataha marakatamanibhihi nirmitaha parvataha yadyasti. So it is here it is not the name of a mountain, it is made of Indranila. Indranila iti manihi. So Indranila manina nirmitaha achalaha parvataha yadyasti tadrishaha bhavati vishnoho dehasya prakashaha ityastha. So Indranila jalodancha chandrika dhavalasmitaha madhusudanaha uche kim uche vacham vacham uche vacham vanim abhashata kidrishim vacham. So tatra visheshanadvayam asti sudhadharam madhuram. Sudhadhara sudhayaha sudhanama amritam amritasya dhara iva. So amritasyandini. So as if speech which was dripping of nectar. So punah kidrishim madhuram. So madhurya yuktam. So which was sweet like a stream of nectar. So Madhusudana, whose smile resembles moonlight playing upon an Indranila mountain. So he spoke words which were very sweet like a stream of nectar. Ityartha. Indranila chalodancha chandrika dhavala smitaha madhusudanaha sudhadharam madhuram vatamuche iti anvayaha. So marakata shaile vilasantya jyotsnaya jyotsna chandrika ityadi paryaya padani. So sadrishena mandahasena yuktaha marakata maninibha shariraha vishnuho amritasyandinim madhuram vanim abravit iti tatpatyam. Padani pashyamaha indranila chalodancha chandrika dhavala smitaha iti ekameva padam. Indranila iti achalaha, if you are considering it as a name, or indranilasya achalaha, so a mountain made of indranila. So indranila chale udanchati chandrika. சோ இந்திரநீலாச்சலே உதஞ்சதி இந்திரநீலாச்சலோதஞ்சதி இந்திரநீலாச்சலோதஞ்சதி சந்திரிகா கர்மதாரயா. சோ இந்திரநீலாச்சலோதஞ்சந்திரிகா இவ தவலம். சோ ஒயிட் லைக் த சந்திரிகா விச் இஸ் ஆன் த இந்திரநீலா மவுண்டன். சோ இந்திரநீலாச்சலோதஞ்சந்திரிகா தவலம் ஸ்மிதம் யஸ்ய சஹ பஹுவ்ரீஹி. தி ஃபைனல் திங் இஸ் அ விசேஷண டு விஷ்ணு அத பஹுவ்ரீஹி. சோ அசல சப்த அத்ரி கோத்ர கிரிகிராவா சலசைல சிலோச்சயாஹ இதி அமரஹ. சோ அசல அத்ரிஹி கோத்ரம் கோத்ரஹ கிரிஹி கிராவா அசலஹ சைலஹ சிலோச்சயஹ. சோ ஆல் தீஸ் ஆர் சினோனிம்ஸ் ஃபார் மவுண்டன். சந்திரிகா கௌமுதி ஜோத்ஸ்னா. சோ ஆல் த்ரீ ஆர் வேர்ட்ஸ் ஃபார் மூன்லைட். வாசம் ஞாயதே சகாராந்த ஸ்திரீலிங்க த்விதீயா விபக்தி. சோ ஊச்சே ஐ திங்க் ஊச்சே காட் லெஃப்ட் அவுட். ஊச்சே வச பரிபாஷணே தாத்தோ லிட்லகாரே ஆத்மனே பதே பிரதம புருஷே ஏகவச்சனம். ஊச்சே ஊச்சாத்தே ஊச்சிரே பரஸ்மை பதே உவாச்ச ஊச்சது ஊச்சு இதி ரூபம். சோ ஆத்மனே பதே ஊச்சே ஊச்சாத்தே ஊச்சிரே இதி. சுதாதாராம் சுதாயாஹ தாரா சுதாதாரா தாம் மதுராம். சோ மதுரா தேர் இஸ் நோ சினானிம் ஃபார் த டேர்ம் மதுரா அஸ் சச். சோ இட்ஸ் எ வெரி ஸ்பெசிபிக் டேர்ம். பட் ஹவு கேன் words be sweet, right? So you cannot taste. Madhura is basically a taste, right? So swadu priyau cha madhurau iti amarakoshah. So madhura shabdasya artha dvayam. Ekam tu swadu, so that which is tasty, actually that which you can taste through the tongue is called madhura. But we also call many other things as madhura. Madhuram ganam, madhura vak ityadi. So in all such cases, madhura means priya, that which is delightful, ityeva artha. So swadu priyau cha madhurau iti nanartha varge amarakosha. Madhusudanaha, madhoho sudanaha, madhusudanaha. So you can see the appropriate terms that bhoja uses. So there are so many thousands of terms which you can use to denote Vishnu. So he picks one. So one is of course rhyming. You have sudhadharam madhuram madhusudanah sarvatra dhakarasya prasah asti iti ekam. So dvitiyam ravanasya nashartham yada devaha vigyapanam kurvanti tada madhusudanah nama daityanashakah vishnuh. So tatra madhusudana iti shabdena daityanashakatvam vyajyate. So it's a very appropriate term for the occasion because the devas have pleaded for protection from a demon. So the word Madhusudana indicates that Vishnu has habitually been protecting them from different asuras over time. Okay. So Indranila Chalodancha Chandrika Dhavalasmitaha Vachamuche Sudhadharam Madhuram Madhusudanaha Atra Upamalankaraha Chandrika Dhavalasmitaha சந்திரிகா இவ தவலம் சந்திரிகா தவலம் இது சமாசேன உபமாலங்கார போத்யதே அனுஷ்டுப் சந்தஹ. ஐ திங்க் திஸ் இஸ் த ஃபர்ஸ்ட் ஸ்லோகா ஆஃப் போஜாஸ் ஓன் விச் ஹி ஹஸ் டன் இன் அனுஷ்டுப், ரைட்? சோ பூர்வம் மானிஷாத இது ஸ்லோகா ஆசீத் கிந்து ராமாயணஸ்ய சஹ ஸ்லோகா. சோ அயம் ஸ்லோகா அனுஷ்டுப் சந்தசி வித்யதே. சோ லக்ஷணம் தூ பூர்வமேவ ஜ்ஞாதம் பஞ்சமம் லகு சர்வத்ர சப்தமம் திசதுர்த்தயோ குருஷஷ்டஞ்ச பாதானாம் சதுர்ணாம் சியாத் அனுஷ்டுபி இதி. சோ இட் இஸ் அ வெரைட்டி ஆஃப் அனுஷ்டுப். சோ பிரஷ்னாஹ சந்தி. இந்திர நீலாச்சலோதஞ்ச சந்திரிகா தவலஸ்மிதஹ வாசமூச்சே சுதாதாராம் மதுராம் மதுசூதனஹ. சோ கிம் வாசமூச்சே, சோ வாட் டிட் ஹி ஆக்சுவலி டெல்? பவதாம் அபராத விதாயின தஸ்ய யாதுதானஸ்ய நிதனம் அதுனைவ விதாதும் சக்யம் இதி ஆரபதே விஷ்ணு. பதச்சேதா எனிபடி? कामाक्षि
भवताम् अपराध विधायिनः तस्य यातुदानस्य निधनम् अधुना एव विधातुं शक्यम्।
सो भवताम् अपराध विधायिनः तस्य यातुदानस्य निधनम् अधुना एव विधातुं शक्यम्। सो केन् यू टेल् द मीनिङ्ग्? सरलमस्ति, कः परशः अर्थं वक्तुं प्रयतते? कामाक्षी
भवत् कृते, देवानां कृते विघ्न कर्तुः रावणस्य हिंसा कर्तुः रावणस्य राक्षसस्य विनाशम् इदानीमेव कर्तुं योग्या अहं योग्यम्
अर्थम् अथवा योग्यं सम्यक्। सो भवतां युष्माकं विष्णुः देवान् उद्दिश्य वदति, सो युष्माकम् अपराधविधायिनः, अपराधम् आचरति, अन्याय्यम् आचरति, सो विनाकारणं भवान् भवतः सर्वान् यः पीडयति तादृशस्य तस्य यातुधानस्य, यातुधानः नाम राक्षसः, राक्षसस्य रावणस्य निधनम्, निधनं विनाशः, वधः अधुना एव, इदानीमेव इति झटिति, भवन्तः मां प्रार्थयन्ते झटिति सम्प्रत्येव तस्य वधः विधातुं कर्तुं शक्यं, शक्यते। सो इट् इस् पासिबल् अण्ड् इट् इस् आल्सो रैट् बिकास् इट् इस् द पालिसि आफ् द लार्ड् टु प्रोटेक्ट् हिस् डिवोटीस् इमीडियट्लि। यदा प्रार्थ्यते तदा सपद्येव भक्तानां रक्षणं करोति भगवान्, अतः सः अपराधी अस्ति, तस्य विनाशः अधुनैव कर्तुं शक्यः अपि, किन्तु इति अग्रे वदति। सो युष्मान् अन्याय्येन पीडयन्तं तं राक्षसं झटिति मारयितुं शक्यते। सो भवताम् भवत् शब्दः सर्वनामशब्दः, षष्ठी विभक्तौ बहुवचनम्, अपराधविधायिनः अपराधविधायिन् नकारान्तः पुल्लिङ्गः षष्ठी विभक्तौ एकवचनरूपम्, अपराधं विधातुं शीलं यस्य सः। सो वी हैव बीन सीइंग दिस ऑफन, ताच्छील्ये निनिः प्रत्ययः, वि इत्युपसर्गपूर्वकस्य धा धातोः ताच्छील्ये निनि प्रत्ययः। सो ताच्छील्य दिस् इस् अ प्रत्यय विच् इस् यूस्ड् वेन् अ पर्सन् इस् हेबिचुअलि डूयिङ्ग् संथिङ्ग्। ओके, सो ही हू हेबिचुअलि टार्मेण्ट्स् यू और् कमिटिङ्ग् इञ्जस्टिस् अगेन्स्ट् यू इत्यर्थः। तस्य यातुधानस्य, यातुधानः पुण्यजनो नैरृतो यातुरक्षसी इत्यमरः, राक्षसानां पर्यायपदेषु यातुधानशब्दः अपि पठ्यते। सो यातुधानः इत्यस्य राक्षसः इत्यर्थः। तस्य निधनम्, निधनं मरणम्, अन्तोनाशो द्वयोर्मृत्युः, मरणं निधनोस्त्रियाम्। सो एतदुदाहरणं कथम् अमरकोशस्य लिङ्गज्ञानार्थम् अपि उपयोगः कर्तुं शक्यते। सो द अमरकोश इस् काल्ड् नामलिङ्गानुशासन। देर् आर् डिफ्रेण्ट् कैण्ड्स् आफ् कोशस् इन् संस्कृत, सम् आफ् देम् आर् नामकोश, देट् इस् दे विल् गिव् यू द पर्याय पदस्, दे विल् नाट् टच् द लिङ्ग, वेर् देर् आर् अदर्स् विच् आर् स्पेसिफिकलि फार् नोयिङ्ग् द लिङ्ग, बट् अमरकोश इस् अ नामलिङ्गानुशासन। You can know both the names and the lingas. Okay? Spashtam kathayati. So the preface of the Amarakosha also gives directions on how to use it to understand the linga. Okay? So atra antaha nashaha. Okay? So antaha nashaha iti pullinge. So it is continuing from previous. Dvayor mrityuhu. Mrityu shabdaha asti. Dvayoho ityatra ityasya sarvada pum strilingayoho ityeva arthaha. So even though dvayoho generally means just two. So in the Amarakosha it's a technical term. So anything in dvayoho means it is in both pullinga and strilinga. Ataha mrityu shabdaha dvayoho. Pum strilingayoho asti. Maranam iti napumsakalinge eva. Nidhanaha astriyam. So nidhana shabdaha astriyam. Nama strilinge nasti. Pullinge napumsakalinge. So nidhanam nidhanaha ityubhayam asti. So you can see among these paryayas, antaha nashaha iti kevalam pullinge. Mrityuhu iti pullinge strilinge cha. Maranam iti kevalam napumsakalinge. Nidhana shabdaha pullinge napumsakalinge. So, so many varieties, everything is captured by the Amarakosha. Okay. It's very useful. It is always that's the same case. Astu. So, kim kathayati Vishnuhu, bhavatam aparadha vidhayana tasya yatudhanasya nidhanam adhunaiva vidhatum shakyam. Kintu. Sarasijasana shasanavapyamohi kurvan urvitale putri yata suttama mitrasya dasharathasya manoratham api purayitu madhritamanushaveshasan ahamevatam hanishyami iti vyahratya antaradhat. So a continuation of what he is saying. Sudha Raghuraman. You have to unmute yourself.
Namaste, Bhagini. Kintu sarasijasana shasanam api amogi kurvan urvitale putri ataha sutrama mitrasya dasharatasya manoratam api purayitum Adrita Manisha Veshaha San Ahameva Hanishyami Iti Vyasritya Antaradat.
Samik.
Vyasritya Antaradat.
Kintu Sarasija Asana Sarasija Asana Shasanam Api Amoghi Kurvan Urvitale Putriyataha Sutrama Mitrasya Dasharathasya Manoratham Api Purayitum Adrita Manusha Veshaha San Aham Eva Tam Hanishyami Iti Vyahratya Antaradhat. Parashahartha, can you try?
Sarasi Brahmanaha Sarasijasana Brahma Brahmanaha Agnyam Api Amogi Kurvan Safalayan Urvi Tale Asyam Prithivyam Putri Ataha Putram Kamayamanasya Sutrama Mitrasya Indra Indra Mitrasya Dasharatasya Manoratam Abhilasham Api Purayitum Safalayitum Adrita Manusha Veshaha Grihita Manusha Akritihi San Ahameva Tam Ravanam Marayishyami Iti Vyakritya Uktua Antaradat Adrishyaha Abhut.
Samyak. Kintu Kimuktam Idanimeva Tasya Hananam Shakyate. Kintu tada kim bhavati brahmana varaha dattaha tasmai ravanaya kimiti manushyetaraihi avadhyatvam iti varaha dattaha. So the boon given by Brahma would be rendered false if Ravana is killed right now. So Brahma's boon would be rendered useless, right? Mokhaha nama vyarthaha. So amokhaha na vyarthaha. So making sure that it does not go a waste. Right? So, kintu sarasijasana shasanam, sarasijasanaha kamalasanaha brahma, tasya shasanam nama agyam, kima kya agya manushyetaraihi avadhyatvarupam varam api amoghi kurvan satyam vidhasyan. So, making sure that Brahma's boon will be true, that what he has assured Ravana, that he will not be killed by anybody other than a mortal. So, manushyetaraihi avadhyatvarupam varam amoghi kurvan. So, moghaha vyarthaha, na moghaha amoghaha nama na vyarthaha. So, na vyarthaha yatha bhavati tatha kurvan ityarthaha. Punashcha kim? So, iti ekam prayojanam. Idanimeva ravanasya hananam shakyam kintu na karomi. Kimartham ekam tu brahmanaha varaha asti tasaha varaha amoghaha kartavyaha iti ekam. Dvitiyam urvitale nama bhuloke putriyataha sutarthinaha sutam icchati putran kankshamanasya dasharathasya kidrishaha saha dasharathaha sutrama mitraha saha devanam suhrid indrasya sakha tadrishasya. So Dasharatha has always helped the gods in defeating the rakshasas. So now when he is desiring the sons, so it is the duty of the devas to pay him back by providing him what he wants. Iti dhvani atayeva sutrama mitrasya dasharathasya. So, and another thing, he is friendly to Indra. So, Ravanaha tasyapi virodhi bhavatyeva svabhavataha iti. So, there are many implications of using the term sutrama mitrasya dasharathasya. Manoratham api. So, manoratham api icham api purayitum saphali kartum. So, two intents. One is to make sure that Brahma's boon will stand. The second is to fulfill the desire of Dasharatha, who is a friend of Indra. So, etat prayojana dvayam api sadhayitum adrita manusha veshaha san. Prayojana dvayam api kena siddhyati ekam manushyaha eva ravanam hanyat iti varaha tadartham manushya veshaha apekshitaha dasharathasya putratva siddhyai api manushya veshaha apekshitaha ataha adrita manusha veshaha san. Adrataha manushaveshaha yena. So, grihita manavakaraha bhutva ahameva nama vishnuhu kathayati tam ravanam hanishyami vyapadayishyami athava marayishyami iti evam vyahritya uktva antaradhat vishnuhu tirohitaha adrishyaha abhut. So, it is possible to kill Ravana right now because of all the atrocities that he has been committing, but making sure that Brahma's boon does not go a waste and fulfilling the desire of Dasharatha, the friend of Indra, who is desiring sons in the on earth. So I will take the form of a human and I shall kill him, Ravana, in the future. Saying thus, the Vishnu disappeared. So, te itopi stutaha vaikunte eva santi tatraiva kila Vishnum drashtum agataha adrishyangataha. So, vaikunte api Vishnoho darshanam tasya ichchaya eva bhavati. Vaikuntangaccha mahate tatrasaha sarvada bhavati athava sarvada drishyate iti nasti. So, tatraiva purvam yada devaha agataha tadatu darshanam dattam iranim tatraiva saha antarhitaha iti bhavaha. So, tatparyam adhinaiva ravanaha hantum shakyaha kintu brahmanaha varam satyapayitum tathaiva bhuloke sutarthinaha indrasakasya dasharathasya icham purayitum cha ahameva manavakaram grihitva tam ravanam vyapadayishyami ityuktva bhagavan narayanah adrishyah abhut. Sarasijasana shasanam. सरसि जायते इति सरसिजम् सरसिजम् कमलम् इत्यर्थः उपपदसमासः सो सरसिजम् आसनम् यस्य सः सरसिजासनः ब्रह्मा सरसिजासनस्य शासनम् सरसिजासनशासनम् अमोघीकुर्वम् सो न मोघः अमोघः सो अनमोघम् अमोघम् कुर्वन् सो एक्चुअली द च्वि प्रत्यय सो द स्टैंडर्ड प्रत्यय इज च्वि अभूत तद्भावे संपद्यमानकर्तरि च्वि सो समथिंग विच वाज नॉट दस इज मेड दस सो दैट ट्रांसफॉर्मेशन इज इंडिकेटेड बाय द टर्म च्वि शुक्लम शुक्लं करोति शुक्ली करोति एवम अत्र सो वस्तुतः देयर आर डबल दिस वन So that which was not amogha is made amogha. Or that which was mogha, vyartha, is made amogha. So, Dev Brahmana varaha diyate chedapi, Vishnor anugrahenaiva tat varaha tishthati. Ityartha. Amoghi kurvan urvi tale. Urvyaha talam urvi talam. Bhutalam. Iti. So, sarvam saha vasumati vasudhorvi vasundhara. Ityamaraha. सो वसुधा उर्वी वसुंधरा उर्वी इति नामधेयम् भुवः पुत्रीयतः सो पुत्रीयतः इति विशिष्टः प्रयोगः पुत्रम् आत्मनः इच्छति सो ही हु डिजायर्स अ सन फॉर हिमसेल्फ अयम् नामधातुः इति कथ्यते सो नामधातु इज अ धातु अ वर्ब व्हिच इज डिराइव्ड फ्रॉम अ नाउन Okay, so here actually putra iti namapadam. Okay, so putram atmanaha icchati ityarthe kyach iti pratyayah kriyate. Supa atmanaha kyach iti sutram. Subantat atmanaha. So something, something you desire something for yourself. That is called, that is the sense conveyed by this pratyaya, the kyach pratyaya. Okay. सो वृषभम् आत्मनः इच्छति वृषभीयति गृहम् आत्मनः इच्छति गृहीयति यु आर् डिजैरिङ्ग् समथिङ्ग् फार् युर् सेल्फ् ओके नाट् फार् अदर्स् द सूत्र इट् सेल्फ् सेज् सुप आत्मनः क्यच् ओके सो क्यच् एण्ड् काम्यच् बोत् आफ् देम् आर् प्रत्ययस् विच् आर् यूस्ड् इन् द सेम् सेन्स् सो पुत्र काम्यति putriyati so swarga kamyati swargiyati so on you can use that for anything you want for yourself so kyach iti pratyayah so yada putra shabdat kyach pratyayah kriyate tada putriya iti bhavati saha dhatu it is a dhatu it can be used like any normal tinganta Like you say, patha becomes patati, patataha patanti. Evam you have putriya iti dhatuhu. Putriyati, putriyataha, putriyanti. Iti sarve lakaraha bhavanti, kritpratyayaha. Dhatuhu yadyad bhavati, tat sarvam api asya api bhavati. So this is a different kind of dhatu. There are two kinds of dhatus. Aupadeshikaha dhatavaha, atideshikaha dhatavaha iti santi. So aupadeshikaha nama dhatu pathe ye dhatavaha santi. So there are about 2000 dhatus in the dhatu patha, the normal kriyapadas that we use. Patati, likhati, gachati, chorayati, nrityati. Ete sarvepi aupadeshika dhatavaha. But there are also derived dhatus. Dhatus which we can derive either from other dhatus, from pratipadikas or subantas. Okay, so they are called sanadhyanta dhatus or the atideshika dhatus. Yatha पठितुम् इच्छति पिपठिषति इत्युच्यते तत्र पिपठिष इति पुनः धातुः पठ इति मूलधातुः किन्तु पठितुम् इच्छति इत्यर्थे अन्यः धातुः भवति पिपठिष सो पिपठिषति पिपठिषतः पिपठिषन्ति इति रूपाणि भवन्ति सः मूलधातोः अपरः धातुः सो इट्स् अ धातु डिरैव्ड् फ्रम् अ धातु Whereas these Namadhatus are dhatus which are derived from Subantas, from nouns. Okay. So, putriyati iti ekam udaharanam. So, putriyataha. सो पुत्रीयतः इत्यत्र वस्तुतः त्यगन्तस्य शत्रुप्रत्ययः लैक् यु हाव् पठन् पठन्तौ पठन्तः यु हाव् पुत्रीयन् पुत्रीयन्तौ पुत्रीयन्तः पुत्रीयन्तं पुत्रीयन्तौ पुत्रीयतः पुत्रीयत इति षष्ठी विभक्तिः दशरथस्य इत्यस्य विशेषणम् सो पुत्रीय इति नामधातोः शत्रन्तात् षष्ठी विभक्तौ एकवचनरूपम् सुत्राममित्रस्य सुत्राम्नः मित्रं तस्य सुत्रामन् इति नकारान्तः पुल्लिङ्गः इन्द्रः इत्यर्थः सुत्रामा गोत्रभिद्वज्री वासवो वृत्रः वृषा इत्यादि इन्द्रस्य पर्यायपदेषु उच्यते इन्द्रो मरुत्वान् मघवा विडौजाः पाकशासनः इत्यादि तत्र सुत्रामा इत्यपि अस्ति सुत्रामा नाम इन्द्रः इत्यर्थः तस्य मित्रम् दशरथस्य मनोरथमपि पूरयितुम् आदृतमानुषवेषः मानुषस्य वेषः मानुषवेषः आदृतः मानुषवेषः येन सः आदृतमानुषवेषः सन् अहमेव इत्यस्ति पूर्वमपि कुर्वन्नुर्वीतले नकारागमः सो देर् इस् अ सेकेण्ड् नकार विच् इस् बीङ्ग् एडेड् अत्रापि तथैव सन् अहमेव इति उभयत्रापि ङमुडागमसन्धिः द सन्धि इस् काल्ड् ङमुडागमसन्धि हनिष्यामि हन हिंसाघत्योः इति धातुः तस्मात् लृट्लकारः उत्तमपुरुषे एकवचनम् हनिष्यामि हनिष्यावः हनिष्यामः इति व्याहृत्य वि आ इति उपसर्गद्वयम् हृञ् हरणे इति धातुः व्याहरति वदति इत्यर्थः ल्यप् प्रत्ययः ल्यवन्तम् अव्ययम् व्याहृत्य अन्तरधात् अन्तर् अधात् सो दीस् वर्ड्स् अन्तर् तिरस् साक्षात् दे आर् आल् लैक् उपसर्गस् दे आर् नाट् उपसर्गस् बट् दे बिहेव् लैक् उपसर्गस् सो यु आड् देम् to the ready form of a dhatu, right? So if you are adding them to lat lakara, so dadhati, so antar dadhati, right? So if you are adding to lung lakara, so adhat iti lung lakare prathama purushe ekavachanam. So antar adhat, antar adhat. Right? So antar iti purvakasya dhadhatohu lung lakare prathama purushe ekavachanam. So kintu सरसिजासनशासनमप्यमोघीकुर्वन्नुर्वीतले पुत्रीयतः सुत्राममित्रस्य दशरथस्य मनोरथमपि पूरयितुम् आदृतमानुषवेषः सन्नहमेव तम् हनिष्यामि इति व्याहृत्य अन्तरधात् अस्तु अग्रिमम् गद्यमपि समापयामः समयः अस्ति एनिबडि पदच्छेदः ततः सा परिषदनिमिषाणाम् उन्मिषितहर्षा हृषीकेशादेशात् प्रशमितदुर्दशानि निर्दशाननानि चतुर्दशभुवनानि बुद्ध्वा दुग्धसागरान् निरगात् पदच्छेदं वक्तुमिच्छन्ति शारदा गोपालम् परिषत् परिषत्
अनिमिषाणाम् उन्मिषितहर्षा ऋषिकेश आदेशात् प्रशमित दुर्दशानि निर्दशाननानि चतुर्दश भुवनानि बुद्ध्वा
పరిషద్ అనిమిషాణాం ఉన్మిషిత హర్ష హృషీకేశ ఆదేశాత్ ప్రశమిత దుర్దశాని నిర్దశాననాని చతుర్దశ భువనాని బుద్ధ్వా దుగ్ధసాగరాత్ నిరగాత్. అనునాసిక సంధి. దుగ్ధసాగరాన్ నిరగాత్. అకారస్య స్థానే నకారాదేశ. కః అర్థః తతః అనంతరం విష్ణోః అంతర్ధానానంతరం సా పరిషత్ పూర్వోక్త అనిమిషాణాం పరిషత్ అనిమిషాః నామ దేవాః తేషాం పరిషత్ సంసత్ సమూహః ఉన్మిషిత హర్ష ఉన్మిషితః నామ సముత్పన్నః హర్షః ఆనందః యస్యాః అత్యంతం ఆనందేన హృషీకేశాదేశాత్ హృషీకేశః విష్ణుః నారాయణః తస్య ఆదేశాత్ తస్య ఆజ్ఞయా ప్రశమిత దుర్దశాని. సో దుర్దశ నామ దురవస్థ, ప్రశమిత నివారిత. సో నివారిత దురవస్థాని నిర్దశాననాని. దశాననః నామ రావణః. రావణాత్ నిర్గతం ముక్తం ఇత్యర్థః. సో రావణ ముక్తాని చతుర్దశ భువనాని. సో భూరాదీన్ చతుర్దశ సంఖ్యాకాన్ లోకాన్. లోకాః చతుర్దశ లోకాః ఇతి కథ్యతే. సో తాని సర్వాణి భువనాని ప్రశమిత దుర్దశాని నిర్దశాననాని. సో ఫ్రీ ఫ్రమ్ రావణ అండ్ దేర్ ఫోర్ సో విత్ ఆల్ దేర్ డిఫికల్టీస్ రిమూవ్డ్. బుద్ధ్వా జ్ఞాత్వా దుగ్ధ సాగరాత్ క్షీర సముద్రాత్ నిరగాత్ ప్రాతిష్టత. సో ద అసెంబ్లీ ఆఫ్ గాడ్స్ సో దే వర్ వెరీ హ్యాపీ ఆన్ హియరింగ్ ద వర్డ్స్ ఆఫ్ నారాయణ. So they realized that soon all the 14 worlds will be freed from Ravana and with all their difficulties removed, and then they left, that assembly of gods left the Kshira Samudra. So Vishnoha Vachanam Shrutva Deva Samuhaha Atyantam Santushtaha Achira Deva Bhagavataha Ajnaya Sarve Lokaha నివారిత దురవస్థాః రావణ ముక్తాః భవిష్యంతి ఇతి జ్ఞాత్వా క్షీర సముద్రాత్ ప్రాతిష్ఠత. అనిమిషాణాం పరిషద్ న నిమిషంతి ఇతి అనిమిషాః. దే హూ డు నాట్ బ్లింక్. సో ద గాడ్స్ డు నాట్ హ్యావ్ మూవింగ్ ఐలిడ్స్ ఇతి ప్రతీతిః. అతః అనిమిషః సురమత్స్యౌ అనిమిషౌ ఇతి అమరః. So Animisha refers to gods and also to fish. Fish also do not blink. They don't need to blink. They have a membrane over their eyes so that water or anything will not enter. Therefore, Suramatsyau Animishau. Atratu Suraha Ityeva Arthaha. So Animishanam Parishad. Unmishita Harsha. Unmishitaha Harshaha Yasyaha Sa. ఋషీకేశాదేశాత్ ప్రశమిత దుర్దశాని ప్రశమిత దుర్దశ ఏషాం తాని. సో చతుర్దశ భువనాని ఇత్యస్య విశేషణం. నిర్దశాననాని సో నిర్గతః దశాననః ఏభ్యః తాని. సో ఫ్రమ్ వేర్ దశానన హస్ లెఫ్ట్ హి హస్ బీన్ రిమూవ్డ్ ఇత్యర్థః. నిర్దశాననాని చతుర్దశ భువనాని. సో 7+7 The upper lokas are 7. Bhuhu, Bhuvaha, Suvaha, Mahaha, Janaha, Tapaha, Satyam. Iti Sapta Urdhva Lokaha. Atala, Vitala, Sutala, Talatala, Mahatala, Rasatala, Patalaha, Adho Lokaha. So the nether worlds and the upper worlds together 14 worlds. So Chaturdasha Bhuvanani, Buddhva, Dugdha Sagarat, Dugdhasya Sagaraha, Tasmat. దుగ్ధం క్షీరం పయస్సమం ఇత్యమరః. సో ద మిల్కీ ఓషన్. నిరగాత్ నిర్ ఇతి ఉపసర్గః. ಇನ್ ಗತೌ ಇತಿ ಧಾತುಃ ಏತಿ ಇತಃ ಯಂತಿ ಇತಿ ಲಟ್ಲಕಾರೆ ರೂಪಾಣಿ ತಸ್ಯ ಲುಂಗ್ಲಕಾರೆ ಪ್ರಥಮ ಪುರುಷೇ ಏಕವಚನಂ ಅಗಾತ್ ಅಗಾತಾಂ ಅಗುಃ ಇಣೋಗಾಲುಂಗಿ ಇತಿ ಸೂತ್ರೇಣ ಇಣ್ ಧಾತೋಃ ಗಾ ಇತಿ ಆದೇಶಃ ಅಗಚ್ಛತ್ ಅಗಮತ್ ಇತ್ಯೇವ ಅರ್ಥಃ ಧಾತುಸ್ತು ಇಣ್ ಧಾತುಃ ನಿರಗಚ್ಛತ್ ನಿರಗಮತ್ ಇತ್ಯರ್ಥಃ ತತಸ್ಸಾ ಪರಿಷದ ನಿಮಿಷಾಣಾಂ ಉನ್ಮಿಷಿತ ಹರ್ಷ ಕೃಷಿಕೇಶಾದೇಶಾತ್ ಪ್ರಶಮಿತ ದುರ್ದಶಾನಿ ನಿರ್ದಶಾನನಾನಿ ಚತುರ್ದಶ ಭುವನಾನಿ ಬುದ್ಧ್ವಾ ದುಗ್ಧಸಾಗರಾನ್ ನಿರಗಾತ್. ಸದ್ಯ ಕಿಂ ದೃಷ್ಟಂ ಅಥ ಭಗವಾನ್ ಆಕರ್ಣ್ಯ ಗೀರ್ವಾಣ ಗಣಮಾಣೀಂ ದೇವಾನಾಂ ವಿಜ್ಞಾಪನಂ ಶ್ರುತ್ವಾ ಇಂದ್ರನೀಲಾ ಚಲೋದಂಚ ಚಂದ್ರಿಕಾ ಧವಲಸ್ಮಿತಃ ವಾಚಮೂಚೇ ಸುಧಾಧಾರಾಂ ಮಧುರಾಂ ಮಧುಸೂದನಃ ವಿಷ್ಣುಃ ಮಂದಹಾಸಯುಕ್ತಃ ಮಧುರಂ ಅಭಾಷತ ಭವತಾಂ ಅಪರಾಧ ವಿಧಾಯಿನಃ ತಸ್ಯ ಯಾತುಧಾನಸ್ಯ ನಿಧನಂ ಅಧುನೈವ ವಿಧಾತುಂ ಶಕ್ಯಂ. ಸೋ ಲೋಕಪೀಡಕಃ ರಾವಣಃ ಸಂಪ್ರತಿ ಝಟಿತ್ಯೇವ ಹಂತುಂ ಶಕ್ಯಃ ಕಿಂತು ಸರಸಿಜಾಸನ ಶಾಸನಮಪ್ಯಮೋಘೀ ಕುರ್ವನ್ ನುರ್ವೀತಲೇ ಪುತ್ರೀಯತ ಸುತ್ರಾಮ ಮಿತ್ರಸ್ಯ ದಶರಥಸ್ಯ ಮನೋರಥಮಪಿ ಪೂರಯಿತುಂ ಆದೃತ ಮಾನುಷ ವೇಷಸ್ಸನ್ ಅಹಮೇವ ತಂ ಹನಿಷ್ಯಾಮಿ ಇತಿ ವ್ಯಾಹೃತ್ಯ ಅಂತರಧಾತ್. ಬ್ರಹ್ಮಣಃ ವಚನಂ ಸತ್ಯಾಪಯಿತುಂ ದಶರಥಸ್ಯ ಇಚ್ಛಾಂ ಪೂರಯಿತುಂ ಚ ಅಹಂ ಮಾನುಷರೂಪೇಣ ಜಾತಸ್ಸನ್ ರಾವಣಂ ಹನಿಷ್ಯಾಮಿ ಇತ್ಯುಕ್ತ್ವಾ ವಿಷ್ಣುಃ ತಿರೋಹಿತಃ ತತಸ್ಸಾ ಪರಿಷದ ನಿಮಿಷಾಣಾಂ ಉನ್ಮಿಷಿತ ಹರ್ಷ ಹೃಷೀಕೇಶಾದೇಶಾತ್ ಪ್ರಶಮಿತ ದುರ್ದಶಾನಿ ನಿರ್ದಶಾನನಾನಿ ಚತುರ್ದಶ ಭುವನಾನಿ ಬುದ್ಧ್ವಾ ದುಗ್ಧಸಾಗರಾನ್ ನಿರಗಾತ್. ಸುಹೃಷ್ಟಾಃ ದೇವಾಃ ಅಚಿರಾದೇವ ರಾವಣಮುಕ್ತಾಃ ಲೋಕಾಃ ಭವಿಷ್ಯಂತಿ ಇತಿ ಜ್ಞಾತ್ವಾ ಕ್ಷೀರಸಮುದ್ರಾನ್ ನಿಷ್ಕ್ರಾಂತಾಃ. ಎನಿ ಕ್ವೆಶ್ಚನ್ಸ್? ವೆಂಕಟೇಶ್ವರನ್ ಮೋಹನೇ, ಯು ಹ್ಯಾವ್ ಟು ಅನ್ಮ್ಯೂಟ್. ಸಾರಿ, ಐ ಥಿಂಕ್ ಯು ಮ್ಯೂಟೆಡ್ ಯುವರ್ ಸೆಲ್ಫ್ ಅಗೇನ್. ಪ್ಲೀಸ್ ಅನ್ಮ್ಯೂಟ್ ಯುವರ್ ಸೆಲ್ಫ್.
ಕ್ಷೀರಸಾಗರ ಇಸ್ ಜಾಗೃತಿ ಲೊಕೇಟೆಡ್?
We don't know. I mean, I think it is not possible to geographically pinpoint the Kshirasagara. Maybe some of the Vaishnava texts have it, I don't know. I'm not aware of it.
Tribal is the netherworld, the upper world. Where are they?
The Puranas give a description of the all the worlds. Okay. So is it possible? Will probably require a deeper this thing of the Puranas. That's it. So there are some concepts which are very very frequently used, very popularly used in all our Puranas, and there are also attempts, even research studies which have tried to relate these to actual geographical or physical locations. I have not personally studied them, but it would be an interesting study definitely. Okay.
Thank you.
Sudha Bhagini.
ಸನ್ನಂತ ಧಾತುಭ್ಯ ಸರ್ವೇ ಕೃತ್ ಪ್ರತ್ಯಾಹ ಯೋಜಯಿತು ಶಕ್ಯತೆ ವಾ?
ಶಕ್ಯಂತೆ. ಆಮಾಂ, ಸನ್ನಂತೇಭ್ಯ ಕೃತ್ ಪ್ರತ್ಯಾಹ ಭವಂತಿ ಪಿಪಠಿಷನ್ ಏವಂ ಪಿಪಠಿಷನ್ ಇತಿ ಶತ್
ಲೆಫ್ಟ್
ಭವತಿ ಭವತಿ.
ಸರ್ವೇ ಕೃತ್ ಪ್ರತ್ಯಾಹ ಯೋಜಯಿತು.
ಸರ್ವೇ ಇತ್ಯುಕ್ತೆ ಸರ್ವೇ ನ ಭವೇಯುಃ, ಯೇ ಸಾಮಾನ್ಯತಃ ಸರ್ವೇಭ್ಯಃ ಧಾತುಭ್ಯಃ ಭವಂತಿ ತೇ ಸನ್ನಂತೇಭ್ಯಃ ಅಪಿ ಭವಂತಿ. ಸೊ
ಪಿಪಟಿಷುಃ ಇತಿ
ಸನ್ನಂತೇಭ್ಯಃ ತತ್ರ ತು ವಿಶಿಷ್ಯ ಉ ಇತಿ ಪ್ರತ್ಯಯಃ ಸಹ ಸನ್ನಂತೇಭ್ಯಃ ಏವ ವಿಹಿತಃ ಸನಾಶಂಸ ಭಿಕ್ಷ ಉಃ ಇತಿ ಸೂತ್ರಂ. ಸೊ ಸನ್ನಂತೇಭ್ಯಃ ಏವಂ ಆಶಂಸುಃ ಭಿಕ್ಷುಃ ಇತಿ ಕರ್ತೃರ್ಥೇ ಉಪ್ರತ್ಯಯಃ ಕೃತ್ ಪ್ರತ್ಯಯಃ ಸಹ ಸನ್ನಂತೇಭ್ಯಃ ಏವ ವಿಶಿಷ್ಯ ವಿಹಿತಃ.
ಶಿವತಿ ಅತ ಪಿಪಶಿ ವಿಪಟಿಶುಹು ಇತಿ ಸುಬಂತಂ.
ಸುಬಂತಂ
ಸುಬಂತಂ ಕೃತಿ.
ಆಮಾಂ,
ಧನ್ಯವಾದ ಧನ್ಯವಾದ.
लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयम् निगमशाखिशिखा प्रवालम् हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरन्नः।